ओम श्री परमात्मने नमः। अथ त्रयोदशोऽध्यायः। श्री भगवान उवाच, इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते, एतो वेति तं प्राहु क्षेत्रज्ञ इति तद्विदः, क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत, क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम, तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् स च यो यत्प्रभावश्च, तत्समासेन मेषिणु शिशिभिर्बहुधा गीतम् छन्दोभिर्विधैः पृथक् ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः, महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च, इन्द्रियाणि दशैकम् च, पञ्चचेन्द्रियगोचरः, इच्छाद्वेषसुखम् दुःखम् सङ्गातश्चेतनाधृति, एतत्क्षेत्रम् समासेन सविकारमुदाहृतम्। अमानि त्वमदम्बित्व महिंसाक्षान्तिरार्जवम्, आचार्योपासनम् शोचम्, स्थैर्यमात्मविनिग्रह, इन्द्रियार्थेषु वैराग्य, मनहङ्कार एव च, जन्ममृत्युजराव्याधि दुःखदोषानुदर्शनम्, असक्तिरनभिस्वङ्गः, पुत्रदारगृह्यादिषु नित्यम् च समचित्तत्व, मिष्टानिष्टोपपत्तिषु मयि चानन्ययोगेन भक्तिरव्यभिचारिणि, वीक्तदेशसेवित्व मरतेर्जनसंसदि, अध्यात्मज्ञाननित्यत्वम् तत्त्वज्ञानार्थदर्शनम्, एतज्ज्ञानमिति प्रोक्त मज्ञानम् यदतोऽन्यथा, ज्ञेयम् यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते, अनादिमत्परम् ब्रह्म न सत्तन्नासदुच्यते, सर्वतः पाणिपादम् तत् सर्वतोऽक्षिशिरोमुखम्, सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति, सर्वेन्द्रियगुणाभासम् सर्वेन्द्रियविवर्जितम् असक्तम् सर्ववृच्चैव निर्गुणम् गुणभोक्तृ च, बहिरन्तश्च भूतानामचरम् चरमेव च, सूक्ष्मत्वातदविज्ञेयम् दूरस्थम् चान्तिके च तत्, अविभक्तम् च भूतेषु विभक्तमिव च स्थितम्, भूतभर्तृ च तज्ज्ञेयम् ग्रसिष्णु प्रभ विष्णु च, ज्योतिषामपि तज्ज्योतिः तमसः परमुच्यते, ज्ञानम् येयम् ज्ञानगम्यम् हृदि सर्वस्य विष्ठितम्। इति क्षेत्रम् तथा ज्ञानम् ज्ञेयम् चोक्तम् समासतः, मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते, प्रकृतिम् पुरुषम् चैव विद्यनादि उभावपि विकारांश गुणांश्चैव, विद्धि प्रकृतिसम्भवान् कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते, पुरुषः सुखदुःखानाम् भोक्तृत्वे हेतुरुच्यते, पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् कारणम् गुणसङ्गोऽस्य, सदसद्योनि जन्मसु उपद्रष्टानुमन्ता च, भर्ता भोक्ता महेश्वरः परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः, य एवम् वेत्ति पुरुषम् प्रकृतिम् च गुणैः सह, सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते, ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना, अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे, अन्ये त्वेवमजानन्त श्रुत्वान्येभ्य उपासते, तेऽपि चातितरन्त्येव मृत्युम् श्रुतिपरायणः, यावत्सञ्जायते किञ्चित् सत्त्वम् सावरजङ्गमम् क्षेत्रक्षेत्रज्ञसंयोगात् तद्विद्धे भरतर्षभ, समम् सर्वेषु भूतेषु तिष्ठन्तम् परमेश्वरम् विनश्यत् सविनश्यन्तम्, यः पश्यति स पश्यति समम् पश्यन् हि सर्वत्र समवस्थितमीश्वरम्, न हि नस्यात्मनात्मानम् ततो याति पराङ्गतिम्। प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः, यः पश्यति तथात्मान मकर्तारम् स पश्यति, यदा भूतपृथग्भावमेकस्थमनुपश्यति तत एव च विस्तारम् ब्रह्म सम्पद्यते तदा, अनादित्वान्निर्गुणत्वात् परमात्मायमव्ययः, शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते, यथा सर्वगतम् सौक्ष्म्या दाकाशम् नोपलिप्यते सर्वत्रावस्थितो देहे, तथात्मानोपलिप्यते यथा प्रकाशयत्येकः कृत्स्नम् लोकमिमम् रविः, क्षेत्रम् क्षेत्री तथा कृत्स्नम् प्रकाशयति भारत, क्षेत्रक्षेत्रज्ञयोरेव मन्तरम् ज्ञानचक्षुषा, भूत प्रकृतिमोक्षम् च ये विदुर्यान्ति ते परम्, ये विदुर्यान्ति ते परम्। ओम् तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः।